सर्वेभ्यो नमः, स्वागतम्. अद्य अन्तिमदिनः अस्ति अद्य, तदर्थं तत्र प्रश्नाः सन्ति वा? आर् देर् एनी क्वश्चन्स् अबौट् एनी आफ़् द टापिक्स् वी हव् डन् सो फार्? लैक् सप्तमी विभक्तिः और् क्रियापदविभज्यप्रयोगः. Atava, does anyone want revision on certain topics?
Bhagini, regarding Saptami Vibhakti, so it is only the location or it is the situation also, a situation of a thing like we can use Saptami Vibhakti?
There's lots of... parts, Mahodhya. So one is, one second, one is place, like where, anantaram, there is, vishaya rupaha iti, so like in a, interest in a certain subject, in that. तत्रापि सप्तमी भवति. अपि इफ् यु यूस् द वर्ब्स् स्निह्यति एण्ड् विश्वसिति, देन् यु विल् हाव् सप्तमी. सो इफ् यु वाण्ट् टु से द मदर् ट्रस्ट् हर् सन्, सो माता पुत्रे स्निह्यति, सारि विश्वसिति इति वदामः. अस्तु. अथवा तत्र ग्रहणम् अथवा ताडनम् अस्ति चेत् तत्र अपि सप्तमी. तत्र सः सः चोरं कण्ठे गृहीतवान्. अस्तु, तावदेव. Location, Vishayarupaha, interest in a certain subject, Snihyati, Vishwasiti, Api Grahanam, Tadanam.
Okay. So that helps actually, yes.
Asa Gopal Modiya, Bhavan Kimuktavan, which ones did you want to revise?
No, I have missed quite a few classes beginning, so I have to catch up.
अस्तु, चिन्ता मास्तु महोदय.
I'll have to catch up with last 4 or 5 weeks recordings, and then I'll have to catch up. Yeah. So if you can tell what all topics you have covered, then I'll go through them.
वयं क्रियापदविभज्यप्रयोगः कृतवन्तः, अपि सप्तमी. अपि सङ्ख्याः कृतवन्तः, तावदेव.
सङ्ख्याः वाट्? ओन्लि नम्बर्स् आर्
आम्
नम्बर्स्
नम्बर्स्
पञ्चमी विभक्ति.
ऐ एम् कवरिङ्ग् नम्बर्स् वित् मै सन्. मै सन् इस् इन् अगस्त्य गुरुकुलं, सो हीस् आल्सो लर्निङ्ग् संस्कृत वित् हिम् डैलि मार्निङ्ग्. सो
Learning. Yeah, nice, better to learn. Easy to learn. You can converse with him.
Yeah.
Asto, anya prashnah na santi va?
Lots of questions with me, but I have to go through before I ask again.
Astu, prashnaha santi chet, you can email me this week, since for me, my school has ended, so I'll be more free and I'll answer any questions.
Okay.
You can also send it in the, You can also send in the WhatsApp group, and if it's like certain topic that you want to like confusion, then I can write like a lesson or something and go through that. So
okay, Bhagini.
Because some of the classes might not be clear. So okay, if you want more clarification, definitely WhatsApp me.
Okay, so, Bhagini. Sure, Bhagini. Thank you.
If I don't answer in WhatsApp, please email me, because I do check this phone, but I might miss some messages. So if I don't reply within 1 or 2 days, then please email me.
Yeah, no problem, Bhagini. I don't think anything will be urgent, but that's okay.
Dhanyavada. So, Abhya, Kinchit, Abhyasam Kurmaha. So that everyone is clear. So we are going to take, since are all the vibhaktis, vibhakti rupas new for people? Even if you haven't memorized them, have you at least like, I know Priya Bhagini has seen them in like Vibhakti Valari and everything. Narasimhamurthy Mahodaya and Gopal Mahodaya, have you both like, do you guys know all the vibhaktis, even if you haven't memorized them? Like, have you learned it at some point?
Yeah.
We learned in our mother tongue.
Just so that I can, like, we can practice the whole, all the vibhaktis. So that if someone doesn't know certain vibhakti, then we can skip that.
Yes. For all the vibhaktis, do we have the Sanskrit rules, Bhagini? That this is Prathama, Dvitiya.
What do you mean?
I know we are learning. Do we have a shloka or this thing to say? I know we say Sambandhe Shashtihi, no? Like that, do we have any shlokas for all the vibhaktis?
I don't think so, Mahodaya. You can make one of yourself.
No, I mean, while doing this one, they will usually say, right, Sambandhe Shashtihi. And then like kimartham mean that purpose means it is chaturthi, so like that, you know. The just wondering whether
That is there now, I think.
That is there, Mahodaya, but there is like no shlokam or anything you can like
shlokam.
Shlokam wise there's nothing, but you can always like start, like if you do like Ramaha, you can always like go through all the vibhaktis and like Ramaha, Ramo, Ramaha. You don't have to say Prathama, Ramaha, Ramo, Ramaha or anything. You can just go through all the vibhaktis. And one thing I definitely advise for people is to, if you write down, like if you write down the Akaranta vibhakti, like Ramaha, Ramo, Ramaha, like color code it for like things that are the same, for like Chaturthi, no, Tritiya, Chaturthi and Panchami, Dvitiya Vibhaktis are the same. So color code that, and then for Chaturthi and Panchami, Bahuvachanam is the same. And then for Shashti and Saptami, Dvivachanam is the same. So like that color code stuff, so then you can remember it.
So Rama Shabdam we know, that's not this one.
Yeah, but I'm taking Rama Shabdam as an example, but you know it for Hari, you can do it for Gita, like that.
Correct.
So, let's practice. So, we'll start from the basic. We'll try Akaranta Pullingaha. We'll take Devaha. So, I'll do an example with Ramaha. So, Ramaha, Ramo, Ramaha, Ramo, Ramam, Ramo, Raman, Ramena, Ramabhyam, Ramabhi, Ramaya, Ramabhyam, Ramebhyaha, Ramat, Ramebhyaha, Ramat, Ramayoho, sorry, Panchami, Ramat,
Ramasya.
Ramebhyam.
Ramebhyam. Ramebhyaha. Ramasya. Ramayohu. Ramana. Rame. Ramayohu. रामेषु अस्तु अस्तु सो लैक् देट् यु हेव् टु बि एबल् टु गो थ्रू आल् द विभक्तिस् अस्तु
just begin for if you learn one vibhakti like ekavachanam I think that should help no
at least punah vata mahadeya
suppose if I learn ramaha ramam ramena ramaya only the prathama only the ekavachanam in all vibhaktis I think that should help no or remember everything will be
rather than taking ekavachanam I probably suggest taking like prathama dvitiya one day and then prathama dvitiya tritiya and chaturthi if you want like that
okay
and definitely for me the color coding idea worked so now like I have an idea that the tritiya chaturthi and panchami dvivachanams are the same chaturthi panchami bahuvachanam is the same and then shashti saptami dvivachanam is the same once okay. even if you just do devah akaranta pullingah the endings will be very similar to others like for hari shabda you will see like the endings for the vibhaktis will be very similar so if you know one it's basically very easy to learn the rest
if you learn pullinga shabda then napumsakalinga will be almost same
it's the same like if yeah. you just have to remember vanam vane vanani then it's just the same as pullinga
okay only strilinga shabda little bit changes okay.
little bit changes
yeah
अस्तु कः बालकः इति
बालकः बालकः बालकं
प्रथमा
ओके बालकः बालक बालकौ बालकाः इज़ इट ओके भगिनि
यु केन् डू आल् द विभक्तिस्
ओके देन् बालकं विल् बि द्वितीयविभक्ति सेम् थिङ्ग् अदिन् प्रथम द्वितीय बालकौ बालकान् ऐ थिङ्क् बालकान् सो बालकेन इट् रैट् बालकेन बालकाभ्यां बालौ बालक बालक बाल बालकाभ्यां न आर् बालकैः सो बालकाय बालकाभ्यां सेम् थिङ्ग् बालकेभ्यः देन् रामात् ओके बालकात् बालकाभ्यां बालकेभ्यः सो देन् रामात् रामस्य ओके बालकस्य बालकयोः बालकानां सो सम्बोधनविभक्ति बालके बालकयोः बालकेषु इज़ इट् ओके भगिनि बालके सम्बोधनविभक्ति बालक राम इस् रामेण लैक्
for sambodhanam for sambodhanam if you have ramaha then sambodhanam will be rama
not rame na okay okay rama oh ye rama okay ye siti okay correct for feminine will say okay so balakayohu बालकेषु आर् बालेषु सम्बोधनविभक्ति भगिनि
sambodhanam bahuvachanam
baleshu or balakeshu
bar sambodhanam it's just going to be balakaha
balakaha only all okay I thought in dvitiya and bahuvachanam
no mahoday did you say saptami
no sambodhana saptami I said saptami is saptami is balake balakayoho balakeshu is it correct
samichinam
so for sambodhana it will be he balaka balakau he balakah
इदानीं एकनिमिष रामः इति प्रिया भगिनी भवती प्रयत्नं करोतु
रामः रामौ रामाः रामं रामौ रामान् रामेण रामाभ्यां रामैः रामाय रामाभ्यां रामेभ्यः रामात् रामाभ्यां रामेभ्यः रामस्य रामयोः रामाणां सप्तमे रामे रामयोः रामेषु हे राम रामौ रामाः
समीचीनम् अस्तु इदानीं गोपाल् महोदय भवान् अनुजः इति करोतु
अनुजः अनुजः अनुजौ अनुजाः अनुजम् अनुजौ अनुजान् रामं रामो रामन् अनुजान् अनुजेन अनुजाभ्याम् अनुजैः अनुजाय अनुजाभ्याम् अनुजेभ्यः अनुजात् अनुजाभ्याम् अनुजेभ्यः अनुजस्यः अनुजयोः अनुजानाम् अनुजे अनुजयोः अनुजेषु अनुजे हे राम अनुज हे राम हे हे अनुज हे अनुजौ हे अनुजाः
समीचीनम् अस्तु अनन्तरम् इदानीं नरसिंहमूर्तिमहोदय भवान् अश्वः इति करोतु
अश्वः अश्वः अश्वौ अश्वाः अश्वम् अश्वौ अश्वान् अश्वेन अश्वाभ्याम् अश्वैः अश्वयाम् अश्वाभ्याम् अश्वेभ्यः अश्वात् अश्वाभ्याम् अश्वेभ्यः अश्वस्य अश्वयोः अश्वानाम् अश्वे अश्वयोः अश्वेषु हे अश्व ये अश्व हे अश्वौ हे अश्वाः अश्वः इस् इट् ओके भगिनि
समीचीनं अस्तु इदानीं प्रिया भगिनी घटः इति करोतु
घटः घटौ घटाः घटं घटौ घटान् घटेन घटाभ्यां घटैः घटाय घटाभ्यां घटेभ्यः घटात् घटाभ्यां घटेभ्यः घटस्य घटयोः घटानां घटे घटयोः घटेषु हे घट घटौ घटाः
समीचीनं भगिनि अस्तु अनन्तरं गोपाल् महोदय भवान् दीपः
दीपः दीपौ दीपाः दीपं दीपौ दीपान् दीपेन दीपाभ्यां दीपैः दीपाय दीपाभ्यां दीपेभ्यः दीपात् दीपाभ्यां दीपेभ्यः दीपस्य दीपयोः दीपानां दीपे दीपयोः दीपेषु हे दीप हे दीपौ हे दीपाः
समीचीनम् अस्तु इदानीं नृसिंहमूर्तिमहोदय देवालयः
देवालयः देवालयौ देवालयाः देवालयं देवालयौ देवालयान् देवालयेन देवालयाभ्यां देवालयैः देवालयैः देवालयाभ्यां देवालयेभ्यः देवालयात् देवालयाभ्यां देवालयेभ्यः देवालयस्य देवालयोः देवालयानां देवालये देवालयोः देवालयेषु हे देवालये देवालय देवालयौ देवालयः
समीचीनम् अस्तु प्रिया भगिनी भवती ध्वजः इति करोतु
ध्वजः ध्वजः ध्वजौ ध्वजाः ध्वजं ध्वज ध्वजौ ध्वजति ध्वजौ ध्वजान् ध्वजेन ध्वजाभ्यां ध्वजैः ध्वजाय ध्वजाभ्यां ध्वजेभ्यः ध्वजात् ध्वजाभ्यां ध्वजेभ्यः ध्वजस्य ध्वजयोः ध्वजानां ध्वजे ध्वजयोः ध्वजेषु ध्वज ध्वजौ ध्वजाः वाट् इस् द मीनिङ्ग् आफ़् इट् भगिनि ध्वज
फ्लाग्
फ्लाग्
फ्लाग् ओके
अस्तु गोपाल् महोदय, भवान् पर्वतः
पर्वतौ पर्वतान् पर्वतेन पर्वताभ्यां पर्वतैः पर्वताय पर्वताभ्यां पर्वतेभ्यः पर्वतात् पर्वताभ्यां पर्वतेभ्यः पर्वतस्य पर्वतयोः पर्वतानां पर्वते पर्वतयोः पर्वतेषु हे पर्वत हे पर्वतौ हे पर्वताः
भगिनि वन् क्वश्चन् फार् रामः विल् टेल् सपोज़् इट् इस् रमा रमा
रमा इस् आकारान्त स्त्रीलिङ्गशब्दः
स्त्रीलिङ्गशब्दः
सो रमा रमे रमाः रमां रमे रमाः रमया रमाभ्यां रमाभिः रमायै रमाभ्यां रमाभ्यः रमायाः रमाभ्यां रमाभ्यः रमायाः रमयो सारि रमयोः रमाणां रमायां रमयोः रमासु हे रमे हे रमे हे रमाः अस्तु आकारान्तस्त्रीलिङ्गं कुर्मः अजा इति करोतु महोदय
सो अजा इज् अ स्त्रीलिङ्गशब्द अजा देन् अजे अजाः सो अजम् अजे अजाः अजया अजाभ्याम् अजाभिः अजैः सेम् थिङ्ग् नो अजाभ्याम् अजाभ्यः अजयाः अजयाः अजाभ्याम् अजाभ्यः अजयाः अजयोः अजानाम् अजायाम् अजयोः अजासु हे अजे हे अजे हे अजा अजाः भगिनि तत् पञ्चमी अण्ड् षष्ठी इस् आल्मोस्ट् सेम् न लिटिल् बिट् अण्ड् बहुवचनं
अस्तु अनन्तरं हियर् आल्सो तृतीया चतुर्थी पञ्चमी द्विवचनं समानम् अस्ति षष्ठी सप्तमी द्विवचनं समानम् अस्ति अपि चतुर्थी पञ्चमी बहुवचनं समानम् अस्ति अस्तु अस्तु इदानीं अनुजा इति प्रिया भगिनी
अनुजा अनुजे अनुजाः अनुजाम् अनुजे अनुजाः अनुजाय अनुजाभ्याम् अनुजाभिः अनुजैः सोरि चतुर्थी अनुजै अनुजाभ्याम् अनुजाभ्यः पञ्चमे अनुजायाः अनुजाभ्याम् अनुजाभ्यः षष्टि अनुजायाः अनुजयोः अनुजासु सोरि अनुजानाम् Anuja, Sashti is Anujayaha, Anujayoho, Anujanam. Saptami Anujayam, Anujayoho, Anujasu. He Anujre, Anuje, Anujaha.
समीचीनं भगिनि अस्तु गोपाल् महोदय भवान् अग्रजा करोतु
अग्रजा अग्रजे अग्रजाः अग्रजाम् अग्रजे अग्रजाः अग्रजया अग्रजाभ्याम् अग्रजाभिः अग्रजायै अग्रजाभ्याम् अग्रजाभ्यः अग्रजयाः अग्रजायाः अग्रजाभ्याम् अग्रजाभ्यः अग्रजायाः अग्रजयोः अग्रजानाम् अग्रजायाम् अग्रजयोः अग्रजासु हे अग्रजे हे अग्रजे
समीचीनम् अस्तु
तृतीया इस् अग्रजया रै
लतया
लतया अग्रजया
अस्तु नरसिंहमूर्तिमहोदय भवान् कथा
कथा कथे कथाः कथां कथे कथाः कथया कथयां कथाभिः कथैः कथै कथाभ्यां कथाभ्यः कथयाः कथाभ्यां कथाभ्यः कथयाः कथयोः कथानां कथयां कथयोः कथासु हे कथे कथे कथाः हियर् भगिनि षष्टिविभक्ति बहुवचनम् इट् इस् कथा नाम् आर् कथानां नाम् नार् नकार ओके that is confusing bhagini really when nakara comes when nakara comes katanam
tat anyat patah bhavati there's lots of rules
okay
etad asti chet tad bhavati vayam patamaha when we come back
okay
we will see that when we come back we'll also go through dhatu ganaha I think we've gone through enough of Gita Sopanam to learn that then we can go back
okay
to Gita Sopanam we'll spend like it'll take at least like 1 to 2 months at least for 8 classes
okay
because we'll go through each and every one of the dhatu ganaha and then we'll do abhyasaha and so that you are comfortable and then we'll go back to the next part aha in Gita Sopanam
okay thank you
astu anantaram priya bhagini
कुञ्चिकाः कुञ्चिकया कुञ्चिकाभ्यां कुञ्चिकाभिः कुञ्चिकायाः कुञ्चिकाभ्यः कुञ्चिकायाः कुञ्चिकाभ्यां कुञ्चिकाभ्यः कुञ्चिकायाः कुञ्चिकयोः कुञ्चिकानां कुञ्चिके कुञ्चिकायां कुञ्चिकयोः कुञ्चिकासु कुञ्चिके कुञ्चिके कुञ्चिकाः.
समीचीनं.
We will try some ikaranta, bhagini. Striling. Ikaranta strilinga.
Kati asu. Gopal Mohdaya, nadi.
Nadi shabdam. Nadi, nadyau, nadyaha. One second, bhagini. Nadim, nadyau. नद्याः तृतीया इस् नदी.
Just like mati, mati shabd.
Mati shabd what? Nadya, nadi bhyam, nadi bhi. Nadyai, nadi bhyam, nadi bhyaha. नद्याः नदीभ्यां नदीभ्यः नद्याः नद्योः नदीनां नद्यां नद्योः नदीषु हे नदी हे नद्यौ हे नद्यः.
समीचीनम्. अस्तु इदानीं नरसिंहमूर्तिमहोदय, जननी.
जननी जननी इज लैक इस इज लैक मति शब्द भगिनी. जननी
नदी शब्दवत्
नदी शब्द. ओके नदी नद्यः नद्यः द्वितीया नदीं नदी नदीः
जननी जननी शब्द
जननी न
जननी जनन्यौ जनन्यः
जनन्यौ जनन्यः
जननीं.
सो इट् इस् ए ओके जनन्यौ. ओके
जननीं जनन्यौ जननीः
जननीः. वाट् इस् देन् द्वितीया विभक्ति
जनन्या
जनन्या. ओके ऐ एम लिटिल बिट अनकंफर्टेबल जननी.
नदीभ्यां न जननीभ्यां जननीभिः जनन्यै जननीभ्यां जननीभ्यः
जननीभ्यः. ओके
जनन्याः जननीभ्यां जननीभ्यः जनन्याः जनन्योः जननीनां जनन्यां जनन्योः जननीषु
जननीषु. ओके
हे जननी हे जनन्योः हे जनन्यः. आई थिंक वी हैव टू राइट ऑल ऑफ दिस थ्री थिंग्स वी हैव टू लीव देन ओनली वी विल बी कॉन्फिडेंट.
या
just because we know Rama Shabdam, you feel can't be confident we know all the other shabdas.
No. For the
Astu kartari iti
takara api
kartari se vikaranta strilinga
karanta
kaha uktavan idani
it was Surendra Mahodaya. I told on his behalf.
Asto Priya Bhagini,
is it the same as Nadi Shabda Bhagini, Kartari or Nadi Nadiyo Nadiyo Kartari Kartarau Kartaha Kartyaha Kartari Kartariyo
Kartari Karta. Asto, I'll give you a simpler one. Gati
Gati Gatyo Gatyaha Gati Gatyo Gatihi Gatya Gatyabhyam Gatibhyam Gatibhyam Gatibhihi Gataya Gatyo Gatyo Gatibhyam Gatibhyaha Panchami Gatyaha Gatibhyam Gatibhyaha Sashti Gatyaha Gatyoho Gatinam Saptami Gatyam Gatyam Gatyoho Gatisu No Gatishu Nadishu Nadi Nadhyo Nadhyaha Gati Gatyo Gatyaha.
Samichino. Astu Idanim Gopal Mahodaya. Nartaki.
Who, Bhagini, you are asking me?
Nartaki iti karoto.
Nartaki Nartakyau Nartakyaha Nartakim Nartakyau Nartakihi Nartakya Nartakibhyam Nartakibhihi Nartakyai Nartakibhyam Nartakibhyaha Nartakyaha Nadi Nadyaha Nartakyaha Nartakibhyam Nartakibhihi Nartakyaha Nartakyoha Nartakinam Nartakyam Nartakyoha Nartakishu He Nartaki, He Nartakyo, He Nartakyo, He Nartakya.
Samichina. Astu. Idaniam Narasimurti Mahodaya, Bhavan Putri.
Putri. So, it is Rikaranta Bhagini? Putri Putri Bhagini? Is it Vikaranta Strilinga?
No. Nadi Vika,
Nadi Shabda, okay. So Putrihi पुत्री पुत्रैः पुत्रीं पुत्री पुत्रीः पुत्रया पुत्रयाभ्यां पुत्रीभिः पुत्रैः पुत्रीभ्यां पुत्रीभ्यः पुत्र्यां पुत्रीभ्यां पुत्रीभ्यः पुत्र्याः पुत्र्योः पुत्रीणां पुत्र्यां पुत्र्यां पुत्र्योः पुत्रीषु हे पुत्री हे पुत्री पुत्र्यः
अस्तु अनन्तरं भगिनी प्रिया भगिनी
भगिनी भगिन्यौ भगिन्यः भगिनी भगीं भगिनी भगिनीं भगिनीं भगिन्यौ भगिनीः भगिन्या भगिन्याभ्यां भगिनीभिः भगिन्यौ भगिनीभ्यां भगिनीभ्यः भगिन्याः भगिनीभ्यः भगिनीभ्य भगिनीभ्यां भगिनीभ्यः भगिन्याः भगिन्योः भगिनीनां भगिन्यां भगिन्योः भगिनीषु भगिनी भगिन्यौ भगिन्यः
समीचीनम् अस्तु गोपाल् महोदय भवान् युवती
युवती युव नदी नद्यौ नद्यः युवती युवत्यौ युवत्यः युवतीं युवत्यौ युवतीः युवत्या युवतीभ्यां युवतीभिः युवत्यै युवतीभ्यां युवतीभ्यः युवत्याः युवतीभ्यां युवतीभ्यः युवत्याः युवत्योः युवतीनां युवत्यां युवत्योः युवतीषु हे युवती हे युवत्यौ हे युवत्यः
समीचीनं महोदय अस्तु अनन्तरं नरसिंहमूर्तिमहोदय लेखनी
लेखनी लेखनी लेखन्यः लेखनीं लेखनी लेखनीः लेखन्या लेखन्यां लेखन्यभिः लेखन्यभिः लेखन्यैः लेखन्यै लेखनीभ्यां लेखनीभ्यः लेखन्याः लेखनीभ्यां लेखनीभ्यः लेखन्याः लेखन्योः लेखनीनां लेखन्यां लेखनीयोः लेखनीषु लेखन्यः
समीचीनम्. अस्तु, इदानीम् इकारान्तपुल्लिङ्गं कुर्मः वा? अग्निः, प्रिया भगिनि,
अग्निः, अग्नि, अग्नयः, अग्निम्, अग्नि, अग्नीन्, मुनिना, मुनिभ्यः, अग्निना, अग्निभ्याम्, अग्निभिः, अग्नये, अग्निभ्याम्, अग्निभ्यः, अग्नेः, अग्निभ्याम्, अग्निभ्यः, अग्नेः, अग्नयोः, अग्निनाम्, अग्नौ, अग्नयोः, अग्निषु, अग्ने, अग्नि, अग्नयः.
समीचीनम्. अस्तु, अनन्तरं ऋषिः गोपाल.
ऋषिः हरिशब्दवत् भगिनी.
आम्,
हरिशब्दवत्.
आम्, हरिशब्दवत् एव.
हरिः, हरि, हरयः, ऋषिः, ऋषि, ऋषयः, ऋषिं, ऋषि, ऋषीन्, ऋषिणा, ऋषिभ्यां, ऋषिभिः, ऋषये, ऋषिभ्यां, ऋषिभ्यः, ऋषेः, ऋषिभ्यां, ऋषिभ्यः, ऋषेः, हर्योः, हर्योः विल् बि
ऋष्योः,
ऋष्योः, ऋषीणां, ऋषौ, ऋष्योः, ऋषु, ऋषिषु, हे ऋषे, हे ऋषि, हे ऋषयः. करेक्ट् भगिनि?
समीचीनम्. अस्तु, इदानीं नरसिंहमूर्तिमहोदय, कपिः.
कपिः, कपी, कपयः, कपीं, कपी, कपीन्, कपिणा, कपीभ्यां, कपीभिः, कपये, कपिये, कपीभ्यां, कपिभिः, कपि, चतुर्थी विभक्ति. सो कपिये, कपिभ्यां, कपिभ्यः, कपेः, कपिभ्यां, कपिभ्यः, कपेः, कपयोः, कपीणां, हरौ विकं, कपौ, कपियोः, कपीषु, कपे, कपी, कपयः.
अस्तु इदानीं गणपतिः इति प्रिया भगिनी
गणपतिः गणपति गणपत्याः गणपति गणपतिं गणपति गणपतीन् गणपतिना गणपतिभ्यां गणपतिभिः चतुर्थी गणपत्ये गणपतिभ्यां गणपतिभ्यः गणपतेः गणपतिभ्यां गणपतिभ्यः गणपतेः गणपतेः गणपत्योः गणपतीनां गणपतौ गणपति गणपत्योः गणपतिषु गणपते हे गणपति गणपत्यः
पुस्तकम् इति गोपाल् महोदय भवान् करोतु
पुस्तकं रामशब्दवत् लिखिनो पुस्तकं रामः रामौ रामौ पुस्तकं पुस्तकौ वनं वने वनानि पुस्तकं पुस्तके पुस्तकानि पुस्तकं पुस्तके पुस्तकानि
पुस्तकं पुस्तके पुस्तकानि पुस्तकेन
पुस्तकेन रामेण फ्रम् रामेण नामाभ्यां रामैः पुस्तकेन पुस्तकाभ्यां पुस्तकैः पुस्तकाय पुस्तकाभ्यां पुस्तकेभ्यः पुस्तकात् पुस्तकाभ्यां पुस्तकेभ्यः पुस्तकस्य पुस्तकयोः पुस्तकानां पुस्तके पुस्तकयोः पुस्तकेषु हे पुस्तकं हे वनं हे वन सो इट् इस्
पुस्तके
हे पुस्तके हे पुस्तकानि
समीचीनम् अस्तु अनन्तरम् अक्षरम् इति नरसिंहमूर्तिमहोदय
अक्षरम् अक्षरे अक्षराणि अक्षरम् अक्षरे अक्षराणि अक्षरेण अक्षराभ्याम् अक्षरैः अक्षर अक्षराय अक्षराभ्याम् अक्षरेभ्यः अक्षरात् अक्षराभ्याम् अक्षरेभ्यः अक्षरस्य अक्षरयोः अक्षराणाम् अक्षरे अक्षरयोः अक्षरेषु ये अक्षरे ये अक्षराणि
समीचीनम् अस्तु इदानीं प्रिया भगिनी आम्रम्
आम्रम् आम्रे आम्राणि आम्रम् आम्रे आम्राणि आम्रा आम्रेण आम्राभ्याम् आम्रैः आम्राय आम्राभ्याम् आम्रेभ्यः आम्रात् आम्राभ्याम् आम्रेभ्यः आम्रस्य आम्रयोः आम्राणाम् आम्रे आम्रयोः आम्रेषु आम्र आम्रे आम्रा आम्राणि
समीचीनम् अस्तु इदानीं गोपाल् महोदय उदरम्
उदरम् उदरम् उदरे उदराणि उदरम् उदरे उदराणि उदरेण उदराभ्याम् उदरैः उदराय उदराभ्याम् उदरेभ्यः उदरात् उदराभ्याम् उदरेभ्यः उदरस्य उदरयोः उदराणाम् उदरे उदरयोः उदराणाम् उदरे उदरयोः उदरेषु हे उदर हे उदरौ हे उदराणि
समीचीनम् अस्तु अनन्तरं गृहम् इति नरसिंहमूर्ति महोदय
गृहं गृहे गृहाणि गृहं गृहे गृहाणि गृहेण गृहाभ्यां गृहैः गृहाय गृहाभ्यां गृहेभ्यः गृहात् गृहाभ्यां गृहेभ्यः गृहस्य गृहयोः गृहाणां गृहे गृहयोः गृहे गृहेषु हे गृहं हे गृहे हे गृहाणि
समीचीनम् अस्तु प्रिया भगिनी चक्रम्
चक्रं चक्रे चक्राणि चक्रं चक्रे चक्राणि चक्रेण चक्राभ्यां चक्रैः चक्रेण चक्राभ्यां चक्रैः चक्राय चक्राभ्यां चक्रेभ्यः चक्रात् चक्राभ्यां चक्रेभ्यः चक्रस्य चक्राभ्यां सारि चक्रस्य चक्रयोः चक्राणां चक्रे चक्रयोः चक्रेषु चक्रे चक्रचक्रे चक्रे चक्राणि
समीचीनम् अस्तु नरसिंहमूर्तिमहोदय छत्रं
छत्रं छत्रे छत्राणि छत्रं छत्रे छत्राणि छत्रेण छत्राभ्यां छत्रैः छत्राय छत्राभ्यां छत्रेभ्यः छत्रात् छत्राभ्यां छत्रेभ्यः छत्रस्य छत्रयोः छत्राणां छत्रे छत्रयोः छत्रेषु हे छत्र हे छत्रे हे छत्राणि
समीचीनं प्रिया भगिनी नक्षत्रं
नक्षत्रं नक्षत्रे नक्षत्राणि नक्षत्रं नक्षत्रे नक्षत्राणि नक्षत्रेण नक्षत्राभ्यां नक्षत्रैः नक्षत्राय नक्षत्राभ्यां नक्षत्रेभ्यः नक्षत्रात् नक्षत्राभ्यां नक्षत्रेभ्यः नक्षत्रस्य नक्षत्रयोः नक्षत्राणां नक्षत्रे नक्षत्रयोः नक्षत्रेषु हे नक्षत्र हे नक्षत्रे हे नक्षत्राणि
समीचीनम् अस्तु इदानीं नरसिंहमूर्तिमहोदय नगरम्
नगरं नगरे नगराणि नगरं नगरे नगराणि नगरेण नगराभ्यां नगरैः नगराय नगराभ्यां नगरेभ्यः नगरात् नगराभ्यां नगरेभ्यः नगरस्य नगरयोः नगराणां नगरे नगरयोः नगरेषु हे नगरे हे नगराणि.
समीचीनम् अस्तु. अनन्तरं प्रियाभगिनी द्वारं
द्वारं द्वारे द्वाराणि द्वारं द्वारे द्वाराणि द्वारेण द्वाराभ्यां द्वारैः द्वाराय द्वाराभ्यां द्वारेभ्यः द्वारात् द्वाराभ्यां द्वारेभ्यः द्वारस्य द्वारयोः द्वाराणां द्वारे द्वारयोः द्वारेषु हे द्वार हे द्वारे हे द्वाराणि.
समीचीनम् अस्तु. अत्र स्थगयामः. अस्तु. वयम् अहं गृहपाठं न भवति. अहं ध्वनिमुद्रणं प्रेषयामि. अस्तु. अपि कदा वयं पुनः आरम्भं कुर्मः इति अपि अहं वाट्साप् ग्रूप् मध्ये प्रेषयामि. अस्तु.
धन्यवादः
भवती अपि.
Thank you.
Thank you.